पुनर्ग्रहीतुं नियमस्थयातया द्वयेपि निक्षेप इवार्पितं द्वयम् लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणांगनासु च
पुनरिति नियमस्थया व्रतस्थया तया देव्या द्वयेपि द्वयं पुनर्ग्रहीतुं पुनरानेतुं निक्षेपः अर्पितमिव निक्षेपत्वेन अर्पितं किमु क्वचित् द्वयीषु इति प्रामादिकः पाठः कुत्र द्वये किन्द्वयम् अर्पितम् इत्याह तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च व्रतस्थायां तस्यां तयोः अदर्शनात् लतादिषु दर्शनाच्च अर्पितमिवेत्युत्प्रेक्षा न तु वस्तुतः अर्पणमस्तीति भावः
अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रश्रवणैर्व्यवर्धयत् गुहोऽपि येषाम् प्रथमाप्तजन्मनाम् न पुत्रवात्सल्यमपाकरिष्यति
अतन्द्रितेति सा देवी स्वयमेव अतन्द्रिता असञ्जाततन्द्रा सती तारकादित्वात् इतच्प्रत्ययः वृक्षकान् स्वल्पवृक्षान् अल्पे इति अल्पार्थे कप्रत्ययः घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिः व्यवर्धयत् गुहः कुमारः अपि प्रथमाप्तजन्मनाम् प्रथमलब्धजन्मनाम् अग्रजातानाम् इत्यर्थः येषाम् वृक्षकाणाम् सम्बन्धि पुत्रवात्सल्यम् सुतप्रेम नापाकरिष्यति उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यम् निवर्तिष्यत इत्यर्थः
अरण्यबीजाञ्जलिदानलालिताः तथा च तस्याम् हरिणा विशश्वसुः यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाम् अमिमीतलोचने
अरण्येति अरण्यबीजानाम् नीवारादीनाम् अञ्जलयः तेषाम् दानेन लालिताः हरिणाश्च तस्याम् देव्याम् तथा विशश्वसुः विस्रम्भम् जग्मुः समौ विस्रम्भविश्वासौ इत्यमरः यथा कुतूहलात् औत्सुक्यात् तदीयैः हरिणसम्बन्धिभिः नयनैः नेत्रैः करणैः स्वकीये लोचने सखीनाम् पुरः पुरतः अनेन तेषाम् सम्बन्धसखत्वम् उक्तम् अमिमीत अक्षिपरिमाणतारतम्यज्ञानाय मानम् चकारेत्यर्थः केचित्तु सा पार्वती तदीयैः नेत्रैः कुतूहलात् पुरः अग्रे वर्तमानानाम् सखीनाम् लोचने अमिमीत व्रतस्थत्वात् आत्मन इत्याहुः माङ् माने इत्यस्माद्धातोः लङ् इयमेव खलु विश्वासस्य पराकाष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः
कृताभिषेकाम् हुतजातवेदसम् त्वगुत्तरासङ्गवतीम् अधीतिनीम् दिदृक्षवस्ताम् ऋषयोऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते
कृतेति कृताभिषेकाम् कृतस्नानाम् हुतजातवेदसम् हुताग्निकाम् कृतहोमामित्यर्थः त्वचा वल्कलेन उत्तरासङ्गवतीम् उत्तरीयवतीम् त्वगुत्तरासङ्गवतीम् अधीतमस्याः अस्तीति अधीतिनीम् स्तुतिपाठादिकुर्वतीम् इष्टादिभ्यश्च इति इनिप्रत्ययः ताम् देवीम् दिदृक्षवः द्रष्टुमिच्छवः ऋषयः मुनयः अभ्युपागमन् समुपागताः न चात्र कनिष्ठसेवादोष इत्याह धर्मवृद्धेषु वयः न समीक्ष्यते न प्रमाणीक्रियते सति धर्मज्येष्ठे वयोज्येष्ठ्यम् न प्रयोजकमित्यर्थः तथा च मनुः न तेन वृद्धो भवति येनास्य पलितम् शिरः यो वा युवाप्यधीयानः तम् देवाः स्थविरम् विदुः इति
विरोधिसत्त्वोज्झितपूर्वमत्सरम् द्रुमैरभीष्टप्रसवार्चितातिथि नवोटजाभ्यन्तरसम्भृतानलम् तपोवनम् तच्च बभूव पावनम्
विरोधीति विरोधिभिः सत्त्वैः गोव्याघ्रादिभिः उज्झितपूर्वमत्सरम् त्यक्तपूर्ववैरम् हिंसारहितमित्यर्थः द्रुमैः अभीष्टप्रसवेन इष्टफलेन अर्चिताः पूजिताः अतिथयः यस्मिंस्तत्तथोक्तम् नवानाम् उटजानाम् पर्णशालानाम् अभ्यन्तरेषु संभृताः सञ्चिताः अनलाः अग्नयः यस्मिंस्तत्तथोक्तम् तच्च तपोवनम् पावयतीति पावनम् बभूव अहिंसातिथिसत्काराग्निपरिचर्याभिः जगत्पावनम् बभूवेत्यर्थः
यदा फलम् पूर्वतपःसमाधिना न तावता लभ्यममंस्तकाङ्क्षितम् तदानपेक्ष्य स्वशरीरमार्दवम् तपो महत्साचरितुम् प्रचक्रमे
यदेति सा देवी यदा यस्मिन्काले तावता तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेण अनुष्ठीयमानप्रकारेण तपोनियमेन काङ्क्षितम् फलम् लभ्यम् लब्धुम् शक्यम् नामंस्त अशक्यम् अमंस्तेत्यर्थः तदा तत्काले अविलम्बेनेत्यर्थः स्वशरीरस्य मार्दवम् मृदुत्वम् सौकुमार्यम् अनपेक्ष्य अविगणय्य महद्दुश्चरम् तपश्चरितुम् साधयितुम् प्रचक्रमे उपचक्रमे
क्लमम् ययौ कन्दुकलीलयापि या तया मुनीनाम् चरितम् व्यगाह्यत ध्रुवम् वपुः काञ्चन पद्मनिर्मितम् मृदु प्रकृत्या च ससारमेव च
क्लममिति या देवी कन्दुकलीलय कन्दुकक्रीडयापि क्लमम् ययौ ग्लानिम् प्राप तया देव्या मुनीनाम् चरितम् तीव्रम् तपः व्यगाह्यत प्रविष्टम् अत्र उत्प्रेक्षते ध्रुवम् अस्याः वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितम् घटितम् अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारम् च कठिनमेव तथा च तदुपादानकत्वात् देव्याः वपुषः सुकुमारस्यापि तीव्रतपः क्षमत्वम् इत्युत्प्रेक्षार्थः
शुचौ चतुर्णाम् ज्वलताम् हविर्भुजाम् शुचिस्मिता मध्यगता सुमध्यमा विजित्य नेत्र प्रतिघातिनीम् प्रभाम् अनन्यदृष्टिः सवितारमैक्षत
शुचाविति शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलताम् दीप्तिमताम् चतुर्णाम् हविर्भुजाम् अग्नीनाम् मध्यगता सती नेत्रे प्रतिहन्तीति ताम् नेत्रप्रतिघातिनीम् प्रभाम् सावित्रम् तेजः विजित्य न विद्यते अन्यत्र दृष्टिः यस्याः स अनन्यदृष्टिः सती सवितारम् सूर्यम् ऐक्षत ददर्श ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः इति स्मरणात् पञ्चाग्निमध्ये तपश्चचारेत्यर्थः तत्र सवितैव पञ्चमोऽग्निः अग्निः सविता सवितैवाग्निः इति श्रौतलिङ्गात्
तथातितप्तम् सवितुर्गभस्तिभिः मुखम् तदीयम् कमलश्रियम् दधौ अपाङ्गयोः केवलमस्य दीर्घयोः शनैश्शनैश्यामिकया कृतम् पदम्
तथेति सवितुः सूर्यस्य गभस्तिभिः किरणैः तथा पूर्वोक्तप्रकारेण अतितप्तम् सन्तप्तम् तस्याः इदम् तदीयम् मुखम् कमलश्रियम् कमलस्य शोभाम् दधौ प्राप यथा रवितापात् कमलम् नम्लायति प्रत्युत विकसति तथा तदीयम् मुखम् आसीदिति भावः किन्तु अस्य मुखस्य दीर्घयोः अपाङ्गयोः केवलम् नेत्रान्तरयोरेव शनैः शनैः मन्दम् मन्दम् श्यामिकया कालिम्ना पदम् स्थानम् कृतम् तयोः सौकुमार्यादित्यर्थः
अयाचितोपस्थितमम्बुकेवलम् रसात्मकस्योडुपतेश्च रश्मयः बभूव तस्याः किल पारणाविधिः न वृक्षवृत्तिव्यतिरिक्तसाधनः
अयाचितेति अयाचितोपस्थितम् अप्रार्थितोपनतम् केवलम् अम्बु उदकम् रसात्मकस्य अमृतमयस्य उडूनाम् नक्षत्राणाम् पतिः चन्द्रः तस्य रश्मयश्च तस्याः पार्वत्याः पारणाविधिः अभ्यवहारकर्म बभूव तावन्मात्रसाधनकः अभूदित्यर्थः साध्यसाधनयोः अभेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः किलेति प्रसिद्धौ वृक्षाणाम् या वृत्तिः जीवनोपायः तद्व्यतिरिक्तम् साधनम् उपायः यस्य सः तथोक्तः पारणाविधिः न बभूव वृक्षोऽपि अयाचितोपस्थितेन मेघोदकेन इन्दुकिरणैश्च जीवतीति प्रसिद्धम् अम्बिकापि तावन्मात्रम् अवालम्बते इत्यर्थः
निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा तपात्यये वारिभिरुक्षिता न वैः भुवा सहोष्माणममुञ्च दूर्ध्वगम्
निकामेति विविधेन पञ्चविधेनेत्यर्थः नभश्चरेण खेचरेण आदित्यरूपेणेत्यर्थः ఇంధనసంభృతేన కాష్టసమిద్ధేన వన్నినా నికామం అత్యంతం తత్తా సా అంబికా తపాత్యయే గ్రీష్మాంతే ప్రావృషీత్యర్థః. నవైః వారిభిః ఊక్షితా సిక్తా సతీ భువా పంచాగ్నితప్తయా సహ ఊర్ధ్వగం ఊర్ధ్వప్రసృతం ఊష్మాణం బాష్పం అముంచత్. గ్రీష్మోష్మ బాష్పమూష్మాణం ఇతి యాదవః.
స్థితాః క్షణం పక్ష్మసు తాడితాధరాః పయోధరోత్సేధ నిపాతచూర్ణితాః వలీషు తస్యా స్ఖలితాః ప్రపేదిరే చిరేణ నాభిం ప్రథమోదబిందవః.
స్థితా ఇతి ఉదకస్య బిందవః ఉదబిందవః. మంథౌదన ఇత్యాదినా ఉదకశబ్దస్య ఉదాదేశః. ప్రథమ ఉదబిందవః ప్రథమ విశేషణాత్ బిందూనాం విరళత్వం బహువచనాత్ నాతివిరళత్వం చ గమ్యతే. తథా చ చిరత్వనాభ్యంతరగమనయోః నిర్వాహః. తస్యాః పార్వత్యాః పక్ష్మసు నేత్రలోమసు క్షణం స్థితాః స్థితిం గతాః. స్థితాః ఇత్యనేన పక్ష్మణాం సాంద్రత్వం క్షణమితి స్నైగ్ధ్యం చ గమ్యతే. అనంతరం తాడితః వ్యథితః అధరః ఓష్ఠః యైస్తే తథోక్తాః. ఏతేన అధరస్య మార్దవం గమ్యతే. తతః పయోధరయోః స్తనయోః ఉత్సేధే ఉపరిభాగే నిపాతేన పతనేన చూర్ణితాః జర్జరితాః కుచకాఠిన్యాదితి భావః. తదను వలీషు ఉదరరేఖాసు స్ఖలితాః నిమ్నోన్నతత్వాదితి భావః. ఇత్థం చిరేణ నతు శీఘ్రం ప్రతిబంధ బాహుల్యాదితి భావః. నాభిం ప్రపేదిరే ప్రవిష్టాః నతు నిర్జగుముః. ఏతేన నాభేః గాంభీర్యం గమ్యతే. అత్ర ప్రతిపదం అర్థవత్వాత్ పరికరాలంకారః.
శిలాశయాం తాం అనికేతవాసినీం నిరంతరాసు అంతరవాతవృష్టిషు వ్యలోకయన్ ఉన్మిషితైస్తడిన్మయైః మహాతపస్సాక్ష్య ఇవ స్థితాః క్షపాః.
శిలాశయాం ఇతి నిరంతరాసు నీరంధ్రాసు అంతరే మధ్యే వాతో యాసాం తాదృశ్యః యాః వృష్టయః తాసు అంతరవాతవృష్టిషు న నికేతే గృహే వసతీతి అనికేతవాసినీం అనావృతదేశవాసినీం ఇత్యర్థః. శిలాయాం శేతే ఇతి శిలాశయాం శిలాతలశాయినీం అధికరణే శేతేః ఇత్యచ్ప్రత్యయః. తాం పార్వతీం సాక్షాద్ద్రష్టా సాక్షీ సాక్షాద్ద్రష్టరి సంజ్ఞాయాం ఇతి ఇనిప్రత్యయః. తస్య కర్మ సాక్ష్యం మహాతపసః సాక్ష్యే స్థితాః క్షపాః తడిన్మయైః విద్యుద్రూపైః ఉన్మిషితైః అవలోకనైః వ్యలోకయన్నివ. ఇవేతి చక్షుషా విలోకనమేవ ఉత్ప్రేక్ష్యతే. సాక్ష్యంతు ఆదిత్యచంద్రావనిలోనలశ్చ ద్యౌర్భూమిరాపో హృదయం యమశ్చ అహశ్చ రాత్రిశ్చ ఉభే చ సంధ్యే ధర్మశ్చ జానాతి నరస్య వృత్తం ఇతి ప్రమాణసిద్ధత్వాత్ నోత్ప్రేక్షం ఇతి అనుసంధేయం.